चित्रं त्रयासिंशत् इदानीं वयं तत् पापकार्याणि कुर्वन्तेषु एकः विश्वासी पापकार्यं कुर्वन्त किम् अर्थम् ईशूने इदं कदा विधानं वद एकः पर्यायम् एकः युवकः तस्य गृहं विसर्जितम् आगच्छयति दूरप्रान्तेषु सा किञ्चित् दुष्टकार्यं कुर्वत सा एकः बृहत् पापकार्यं कुर्वत दुष्टसाङ्गत्यम् सा तस्य पिताः सर्वं सम्पदं विसर्जितः इदं विधानेषु अपि एकः दिनं तद्देशस्य एकं भयङ्करः क्षामं सम्भवति तत्समयेषु सः बहु दरिद्रनाय तत् क्षुद्बादेषु वदति सा ग्रहितम् इदं तत् ईश्वरस्य विधानं तस्य पिताः विधानं च एकः बृहत् पापकार्याणि कुर्वन्ति इदं कार्यं सः कुर्वति तस्य कार्येषु सः पश्चात्ताप्तहृदयेषु समर्दवम् तस्य गृहमेव त्वम् आगच्छयं प्रारम्भम् तस्य पुत्रः तत् पापकूपेषु निमग्नम् तस्य पितरौ तस्य प्रेमविधानं नाखण्डितम् सः बृहत् समादेशु तस्य पुत्राणां स्वीकरितु तस्य पापकार्याणेषु क्षमापणं तदा च वयं पापम् आचरति स्म एवं वयमेवं त्वमेवा पापकार्याणार्धानिमित्तं पश्चात्तापम् आसन्ति सदा ईश्वरस्य पादेषु समीपं गच्छयन्ति स्म ईश्वरस्य अहमेव पापानां क्षमापणं ददा शक्ति ईश्वरम् एकः पिता समानेषु सर्वाणि ग्रहणं करोति ईशस्य वद स्वर्गेषु आनन्देषु त्वम् अस्ति अपि च एकः पापी तस्य पापार्थं पश्चात्तापं कुर्वति